इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। तमिलनाडु राज्यस्य कल्पक्कम नगरे स्वदेशीय रूपेण परिकल्पितं निर्मितं च प्रोटोटाइप फास्ट बीडर रिएक्टर इति रूपेण भारतं स्वस्य परमाणु ऊर्जा कार्यक्रमे प्रमुखं सोपानं प्राप्नोत्। प्रधानमन्त्रिणा नरेन्द्र मोदिना अस्याः ऐतिहासिकोपलब्धेः प्रशंसा कृता। सामाजिक प्रसार माध्यमे श्रीमोदी अवदत् यत् भारतं स्वकीयायां नागरिक परमाणु यात्रायां निर्णायकं स्थानं सम्प्राप्य त्रिचरणीय परमाणु कार्यक्रमस्य द्वितीये चरणे प्रगतिं करोतीति। क्षणोयं भारताय गौरवपूर्णः अस्तीति ब्रुवन् श्रीमोदी परियोजनायां संलग्नान् वैज्ञानिकान् अभियन्त्रीं च अभिनन्दयत्। असम केरल केन्द्रशासित पुदुच्चेरीति प्रदेशानां विधानसभा निर्वाचनस्य प्रचारः अद्य सायंकाले समाप्यते। अद्य अन्तिमघण्टासु विभिन्नानां राजनैतिकदलानां प्रमुखनेतारः मतदातृभिः सह सम्पर्कं स्थापयितुम् एतेषु प्रदेशेषु स्वसमर्थनस्य आधारं सुदृढं कर्तुञ्च समन्वितप्रयासान् कुर्वन्तः सन्ति। असमराज्ये 26%, केरलराज्ये 44%, पुदुच्चेरीति राज्ये 30 स्थानेभ्यश्च गुरुवासरे एकचरणीय मतदानं भविष्यति। ह्यः भाजपा पक्षस्य वरिष्ठः नेता प्रधानमन्त्री च श्रीनरेन्द्रमोदी असमराज्यस्य बारपेटा होजल डिब्रुगढ़ क्षेत्रेषु सार्वजनिकसभां कृतवान्। राज्ये कांग्रेसदलम् अपि स्वप्रचारं तीव्रम् अकरोत्। दलस्य वरिष्ठनेत्री कुमारी शैलजा ह्यः गुवाहाटीनगरे वार्ताहरसमूहम् अभिसम्बोधितवती। अत्रान्तरे असमगणपरिषद, असमजातीयपरिषद, राज्योर्दौल इत्यादीनि अन्यानि राजनैतिकदलानि अपि सम्पूर्णे असमराज्ये स्वकीयान् प्रचारप्रयासान् प्रावर्धयन्। पुदुच्चेरीति केन्द्रशासितप्रदेशे ह्यः व्यस्तः प्रचारकार्यक्रमः दृष्टः, यत्र प्रमुखाः नेतारः सम्पूर्णे क्षेत्रे जनसभाः सम्बोधितवन्तः। केरलराज्ये प्रचारस्य मार्गः समानरूपेण सजीवः आसीत्, यत्र विभिन्नानां राजनैतिकदलानां वरिष्ठनेतृभिः सम्पूर्णे राज्ये सभाः, रोड शो इति च आयोजिताः अभवन्। पश्चिम एशिया द्वन्द्वस्य मध्ये देशे अन्नधान्यानां पर्याप्तं भण्डारणम् अस्तीति सर्वकारः आश्वासितवान्। ह्यः नवदेहल्यां पश्चिम एशियायाः वर्तमानिकस्थितिविषये अन्तर्मन्त्रालयीयं विवरणं प्रयच्छन् उपभोक्तृकार्यविभागस्य अपरसचिवः अनुपम मिश्रः अवदत् यत् आवश्यकवस्तूनां मूल्येषु सामान्यरूपेण अस्थिरता नास्तीति। पेट्रोलियम प्राकृतिक गैस मंत्रालयस्य संयुक्त सचिवेन सुजाता शर्मा इत्यनया उक्तं यत् मार्च मासस्य प्रथम दिनांकादारभ्य प्रायः 18 कोटिः सिलेंडरेति वात्यन्धनकोषाः गृहेषु प्रदत्ताः इति।
पिछले 5 हफ्ते में लगभग 18 करोड़ घरों को एलपीजी सिलेंडर पहुंचाया गया है। हमारी ऑनलाइन बुकिंग रिकॉर्ड हाई 97% पर है। हमारे डिस्ट्रीब्यूटर्स इतवार वाले दिन भी अपनी डिस्ट्रीब्यूटरशिप्स को खोले हैं ताकि सभी को एक स्मूथ एलपीजी डिलीवरी हो पाए।
राज्यसभायाः सभापतिः सीपी राधाकृष्णनवर्यः, लोकसभाध्यक्षः ओम बिरला च मुख्य निर्वाचन आयुक्तं ज्ञानेशकुमारं निष्कासयितुं विपक्षीय सदस्यैः आनीतं प्रस्तावं निराकृतवन्तौ। कल्लाचक नगरस्य मोथाबाड़ीनगरे मतदातृसूच्यां संशोधनार्थं कार्यं कुर्वन्तः 7 न्यायपदाधिकारिणः परिवेष्टिताः उत्पीडिताः च अभवन्। ततः परं सर्वोच्चन्यायालयेन पश्चिमबंगस्य प्रशासनं बहुशः निन्दितम्। अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेन उक्तं यत् यदि ईरानदेशः तेहरानदेशेन सह श्वः प्रातः भारतीय समयानुसारं 5:30 यावत् सामान्यसम्मतं व्यवहारं न करिष्यति तर्हि ईरानस्य विनाशलीला समारप्स्यते इति भीत्याभिवर्धिका सूचना दत्ता। आईपीएल इति क्रिकेट क्रीडायां कोलकाता नाइट राइडर्स अथ पंजाब किंग्स 11 इत्येतयोः मध्ये गतरात्रौ कोलकातायाः ईडन गार्डन्स इति क्रीडाङ्गणे वृष्ट्या क्रीडा स्थगिता इति वार्ताः।